श्री परमात्मने नमः। अथ प्रथमोऽध्यायः। धृतराष्ट्र उवाच, धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः, मामकाः पाण्डवाश्चैव किम कुर्वत सञ्जय। सञ्जय उवाच, दृष्ट्वा तु पाण्डवानीकम् व्यूढं दुर्योधनस्तदा,